अथ बहुमणिमिश्रैर्मौक्तिकस्त्वां विकीर्य त्रिभुवनगमनीयैः पूजयित्वा च वस्त्रैः मिलितविविधमुक्ताम् दिव्यमाणिक्ययुक्ताम् जननि कनकवृष्टिम् दक्षिणाम् ते अर्पयामि। मातः काञ्चन दण्डमण्डितमिदम् पूर्णेन्दुबिम्बप्रभो नानारत्नविशोभिहेमकलशम् लोकत्रयाह्लादकौ बास्वन्मौक्तिकजालिका परिवृतौ प्रीत्यात्महस्ते धृतौ छत्रं ते परिकल्पयामि शिरसि द्वष्ट्रा स्वयं निर्मितौ।